अथ चतुर्थोऽध्याय व्यास उवाच इति ब्रुमाणम् संस्तूय मुनीनाम् दीर्घसात्रिणाम् वृद्ध कुलपतिः सूतम् भवद्विच शौनकोऽब्रवीत्। शौनक उवाच सूतसूत महाभाग वदनो वदताम् वर कथाम् भागवतीम् पुण्याम् यदाह भगवाञ्छुक कस्मिन् युगे प्रवृत्तेयम् स्थाने वा केन हेतुना कुतः संचोदितः कृष्ण कृतवान् संहिताम् मुनिः तस्य पुत्रो महायोगी समद्रिङ् निर्विकल्पकः एकान्तमतिरुन्निद्रो गूढमूढ इवेयते दृष्ट्वानुयान्तमरिषिमात्मदमप्यनग्नम् देव्यो रिया परिददुर्न सुतस्य चित्रम् तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुंविदा न तु सुतस्य विविक्तदृष्टेः कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् उन्मत्तमूक जडवद्विचरन् गजसाव्वये कथम् वा पाण्डवे यस्य राजर्षेर्मुनिना सह संवाद समभूत्तात् यत्रैषा सात्वती श्रुतिः स गोदोहनमात्रम् हि गृहेषु गृहमेदिनाम् अवेक्षते महाभागस्तीर्थि कुर्वंस्तदाश्रमम् अभिमन्युसुतम् सूत प्राहुर्भागवतोत्तमम् तस्य जन्म महाश्चर्यम् कर्माणि च गृणीहिनः स सम्राट् कश्यपा हेतोः पाण्डूनाम् मानवर्धनम् प्रायोपविष्टो गङ्गायाम् अनादृत्यादिराश्रियम् नमन्ति यत्पादनिकेतमात्मनः शिवायाहानीय धनानि शत्रवः कथम् सवीर श्रीमङ्गदुस्त्यजाम् युवैषतोत्स्रष्टुमहो साहसुभिः शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः जीवन्ति नात्मार्थमसौ पराश्रयम् मुमोच निर्विद्य कुतः कलेवरम् तत्सर्वम् च समाचक्ष्व पृष्टो यदि ह किञ्चन मन्ये त्वाम् विषये वाचाम् स्नातमन्यत्र छान्दसात्। सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये जातः पराशरादियोगी वासव्याम् कलया हरेः स कदाचित् सरस्वत्या उपस्पृश्य जलम् शुचि विव्यक्तदेशयासीने उदिते रविमण्डले परावरज्ञः स ऋषिः कालेनाव्यक्तरङ्गसा युगधर्मव्यतिकरम् प्राप्तम् भुवि युगे युगे भौतिकानाम् च भावानाम् शक्तिभ्रासम् च तत्कृतम् अश्रद्धधानान् निःसत्त्वान् दुर्मेधान् दर्शितायुषः दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा सर्ववर्णाश्रमाणाम् यद्दध्यौहितममोघदृक् चातुर्होत्रम् कर्मशुद्धम् प्रजानाम् वीक्ष्य वैदिकम् व्यदधाद्यज्ञ सन्त्यत्यै वेदमेकम् चतुर्विधम् ऋग्यजुसामाथर्वाख्या वेदास्तत्त्वार उद्धृताः इतिहास पुराणम् च पञ्चमो वेद उच्यते तत्र ऋग्वेद्धरक्तैलः सामगो जैमिनी कविः वेशम्पायन एवैको निष्णातो यजुषामुद अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः इतिहास पुराणानाम् पिता मेरो महर्षणः तयेते ऋषियो वेदम् स्वं स्वम् यस्यन्नले अनेकधा शिष्यै प्रशिष्यैस्तच्छिष्यैः वेदास्ते शाखिनो भवन् त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा एवम् चकार भगवान् व्यास कृपणवत्सलः स्त्रीशूद्रद्विजबन्धूनाम् त्रयी न श्रुतिगोचर कर्म श्रेयसि मूढानाम् श्रेय एवम् भवेदिह इति भारतमाख्यानम् कृपया मुनिना कृतम् एवम् प्रवृत्तस्य सदा भूतानाम् श्रेयसि द्विजाः सर्वात्मकेनापि यदा नातुष्यद्हृदयम् ततः नाति प्रसीदद्हृदय सरस्वत्यास्तटेषु च वितर्कयन् विविक्तस्थ इदम् प्रोवाच धर्मवित् धृतव्रतेन हि मया छन्दांसि गुरवोग्नय मानिता निर्व्यलीकेन गृहीतम् चानुशासनम् भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शित दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत तथापि बत मे दह्यो यात्मा चैवात्मना विभु असम्पन्न इवा भाति ब्रह्मवर्चस्य सत्तमः किं वा भागवता धर्मा न प्रायेण निरूपिताः प्रिया परमहंस्या परमहंसानां त एव ह्यच्युत प्रिया तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः कृष्णस्य नारदो भ्यागादाश्रमं प्रागुदारिदं तमभिज्ञाय सहसा प्रत्युथायागतं मुनिः पूजयामास विधिवन् नारदं सुरपूजितम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः।